नमस्सर्वेभ्यः अद्य प्रौढमनोरमायाः विसर्गसन्धिप्रकरणे द्वितीयः पाठः सेप्टेम्बर् मासस्य विंशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ध्यायन् ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम् गतवर्गस्य किञ्चित् पुनरावर्तनं कुर्मः. विसर्गसन्धिप्रकरणे प्रौढमनोरमायां व्याख्यातं प्रथमं सूत्रमासीत् शर्परे विसर्जनीयः. शर्परे खरि विसर्जनीयस्य विसर्जनीय एव स्यात् न तु अन्यत् इति सूत्रार्थः. तत्र शर्परे न इत्येव वक्तुं शक्यते. शर्परे न इत्युक्ते यः आदेशः उच्यते सः न भवति किल इति प्रश्ने, तथैव उक्ते प्रसक्ते सत्त्वे निषिद्धे अपि कफौ स्याताम्. विसर्जनीयस्य सः इत्यनेन सत्त्वम् अनुवर्तते, अतः सत्त्वं न भवति इत्येव अर्थः भवति. किन्तु अग्रे यदुच्यते कुप्पोः कः पौच इति, तेन जिह्वामूलीय उपध्वनीयौ तु भवतः एव. अतः शर्परे न इत्युक्ते अभीष्टं न सिद्ध्यति. विसर्जनीयवचनात् तु विकारमात्रं, नाम सर्वे विकाराः बाध्यन्ते, कोऽपि विकारः न भवति. इट् विल् नाट् बि चेञ्ज्ड् एट् आल्. वट् एवर् इस् द निमित्त, इट् विल् स्टिल् रिमेन् एस् अ विसर्जनीय. दट् इस् द रीसन् फार् सेयिङ्ग् विसर्जनीय अगेन् इन्स्टेड् आफ् सेयिङ्ग् शर्परे न. सोपदादौ इति अग्रिमं सूत्रमासीत्. अपदादौ इत्यस्ति कुप्वोः इत्यस्य विशेषणम्, व्यत्ययेन एकवचनम्. अपदाद्योः कुप्वोः परयोः इत्युच्यते. खरि इत्यस्य अनुवृत्तिः तु न भवति, यतोहि मण्डूकप्लुत्या अनुवर्तनीयम्, उत्तरत्रापि प्रयोजनं नास्ति. अतः कुप्वोः इत्येव अनुवर्तनीयम्. अपदादौ इत्येकवचनं, कुप्वोः इति द्विवचनं, व्यत्ययेन. अतः अपदाद्योः कुप्वोः इत्येव सूत्रार्थः. तत्र कानिचन वार्तिकानि सन्ति. पाशकल्पकाम्येषु काम्येषु इति वक्तव्यम् इति वार्तिकम्. तत्र सम्भवप्रदर्शनम् अर्थात् एतेषु एव प्रत्ययेषु अपदान्तस्य अपदान्तयोः कुप्वोः सम्भवः अस्ति. दिस् इस् नाट् टु से दट् उपदादौ विल् apply only for these. It is not a niyama. Okay? It is rather just showing that which are the cases where we can find apadadyohu, apadadi, kupu, kavarga or pavarga, which is kakara or pakara in apadadi. That is pratyayas which start with kakara or pakara are only these. Tataha pratahkalpam isyasti anavyayasya na iti वार्तिकम्. अनव्ययस्य इति वक्तव्यम्. यत्र अव्ययं न भवति तस्यैव सत्त्वं भवति. अव्ययस्य सत्त्वं न भवति इति दर्शयितुं प्रातःकल्पम्. तत्र प्रातःकल्पम् इति रूपसिद्धिः कथम् इति प्रश्नः. यतोहि प्रातः इति अधिकरणशक्तिप्रधानम्, शक्तिः नाम सम्बन्धः. कारकम् अधिकरणकारकं, कारकं नाम क्रियान्वयः, क्रियया सह सम्बन्धः. यत्र प्रातःकल्पम् ईषदूने कल्पोपदेश्यदेशीयः इति प्रत्ययाः विधीयन्ते. कस्य ईषदूनत्वं? पदार्थस्य ईषदूनत्वमेव उच्यते, न तु सम्बन्धस्य. तथा सति कथम् अत्र प्रत्ययः भवितुमर्हति इति प्रश्नः. अधिकरणशक्तिप्रधानस्यापि प्रातःशब्दस्य इह वृत्तिविषये शक्तिमत् परत्वम्. वस्तुतः तत्र प्रातः इत्युक्ते अधिकरणशक्तिः प्रधानतया भासते, किन्तु यत्र वृत्तिः प्रातःकल्पम् इत्यादिषु, तत्र शक्तिमत् नाम सः पदार्थः. प्रातःकालः इत्येव अर्थः, न तु प्रातःकाले इति. अतः शक्तिमत् परत्वं, यथा अन्यान्यपि उदाहरणानि दर्शितानि, दिवाभूता रात्रिः, दोषाभूतमहः इत्यादिषु अपि दिवा, दोष इति सर्वेऽपि शब्दाः शक्तिप्रधानाः, अधिकरणशक्तिप्रधानाः. तथापि तेषां वृत्तिः नाम च्वि प्रत्ययो वा अत्र कल्पप्रत्ययो वा दृश्यते. तत्र केवलं प्रातिपदिकार्थमात्रं गृह्यते, न तु अधिकरणशक्तिः. काम्ये रोरेवेति वाच्यम् इत्यपि अस्ति. काम्यच् प्रत्यये परे रोः यः विसर्गः ससजुषो रुः इत्यनेन ऋत्वे तस्य रोः यः विसर्गः तस्यैव षत्वं वा सत्वं वा भवति इति. वस्तुतः अत्र केवलस्य सत्त्वस्य उदाहरणानि न दृश्यन्ते. सर्वत्र विसर्जनीयप्रकरणे अकारात् परस्य सत्त्वम् इणः शः इति अग्रिमसूत्रमस्ति. इणः परस्य षत्वं सत्त्वषत्वे. सो एव्रिवेर् वि हेव् बोत् दीस्. अतः अकारात् परस्य विसर्गस्य अयं निषेधः नान्वेति. किमर्थं? सर्वत्र अकारात् परः विसर्गः रोरेव निष्पन्नः. इट् इस् आल्वेस् फ्रम् रु एक्सेप्ट् इन् केसेस् आफ् अव्ययस्. अव्ययस्य तु अनव्ययस्यैव इति वार्तिकेनैव निषेधः सिद्ध्यति. अनव्ययस्य अकारात् परस्य विसर्गस्य रु भिन्नत्वं कुत्रापि नास्ति. देर् इस् नो विसर्ग प्रिसीडेड् बै अकार विच् इस् नाट् डिरैव्ड् फ्रम् रु. अतः साक्षात् सोपदादौ इत्यस्य प्रसङ्गे निषेधं दर्शयितुं न शक्यते. We cannot show an instance where, in the absence of this vartika, sopadadav would have applied directly. Hinashaha ityasyeva udaharanani labhyante yatha gih kamyati. Gir shabdaha, gr nigarane, tatra ruta it dhatoho ityanena itvam, uran raparaha ityanena raparatvam. So it is directly a repha and not ru. So in this case, for inashaha, in the absence of this vartika, inashaha would have applied. तस्य वादनार्थम् इदं वार्तिकं युज्यते. अतः इदं वार्तिकम् इणश्यः इत्यत्रैव पठनीयम्. सोपदादौ इत्यत्र अस्य प्रयोजनं नास्ति इति आक्षेपः. तत्र उच्यते यदि इणश्यः इत्यत्रैव इदं वार्तिकं पठ्येत. अस्यूमिङ्ग् दिस् वार्तिका वाज़् ओन्ली इन् इणश्यः, प्रिवेण्टिङ्ग् ओन्ली द आपरेशन् आफ् इणश्यः, देन् वाट् वुड् हेव् हेपन्? काम्ये रोरेव, काम्यश्रुतये परे रोरेव विसर्गस्य इणः परस्य विसर्गस्य षत्वं स्यात्. सो इवन् इफ् यु प्रिवेण्ट् इणश्यः, आफ्टर् यु ओवर् रू इणश्यः, सोपदादौ विल् कम् बेक् बिकास् सोपदादौ वित् द उत्सर्ग. इणश्यः इति अपवादः, अपवादे बाधिते उत्सर्गस्य प्रवृत्तिः भवति. सो देन् सोपदादौ केन् आक्ट् टु कन्वर्ट् दट् टु ए सकार. यु प्रिवेण्टिङ्ग् ओन्ली शकार. सो आफ्टर् शकार इस् प्रिवेण्टेड्, Sopadado can come back. As long as Inashaha operates, it will overrule Sopadado because it is an Apavada. But once you block the Apavada, there is no problem for applying the Utsarga. So if you apply the Utsarga, then Sattva will operate. So to prevent such Sattva, Sopadado ityatrapi kamye roreve iti vachyam iti vartikasya anvayaha angi kriyate. Sutra dvaye api Sopadado ityatra tatha Inashaha ityatra asya vartikasya pravrittihi. इणश्यः इति अग्रिमं सूत्रम्. सो इता यथा सम्भवम् इणः परस्य शः अन्यस्य सः इति विवेकः. सो इन् आल् द फालोयिङ्ग् सूत्रस् देर् आर् सम् 12 ओर् 13 सूत्रस् इन् द प्रकरण. सो एव्रिवेर् इणः परस्य शः. इफ् विसर्ग इस् फालोयिङ्ग् इन्, यु हेव् शक. इफ् विसर्ग इस् प्रिसीडेड् बै इन्, वि हेव् षत्व. इफ् इट् इस् प्रिसीडेड् बै अदर्स् थिङ्ग् इस् अकार, वि हेव् सत्त्व इति विवेकः. इदुदुपधस्य च अप्रत्ययस्य इति अग्रिमं सूत्रम्. इदुदुपधस्य अप्रत्ययस्य विसर्जनीयस्य सत्त्वषत्वे सः इणश्यः इति अनुवर्तते. सो देर् आर् त्री वर्ड्स् इन् षष्ठी विभक्ति. षष्ठीविभक्तौ पदत्रयम् अस्ति. कथं परस्परान्वयः इति प्रश्नः. विसर्जनीयस्य इति विशेष्यम्, तस्य विशेषणद्वयं दीयते. इदुदुपधस्य इति एकं विशेषणम्, अप्रत्ययस्य इत्यपरं विशेषणम्. तत्र इदुदुपधस्य विसर्जनीयस्य इत्येतत् वैयधिकरण्येन अन्वयः. अर्थात् इदुदुपधस्य इदुतौ उपधेयस्य इति समासः. दट् विच् हेज् इत् अण्ड् उत् एस् उपधा इति समासः. तत्र अन्यपदार्थः कः? इदुतौ उपधेयस्य सः. सः कः इत्युक्ते कश्चन समुदायः, वर्णसमुदायः एव भवितुम् अर्हति. बिकास् उपधा इस् अलोन्त्यात् पूर्व उपधा. सो देर् शुड् बि अट्लीस्ट् टू लेटर्स्. सो अमङ्ग् देम् द लास्ट् बट् वन् लेटर् इस् काल्ड् उपधा. सो द उपधा अस्यूम्स् द प्रेसेन्स् आफ् मोर् देन् वन् लेटर्. So, idutau upadheyasya ityatra varana samudayah eva padartha. So, idudupadha cannot directly be visarga. Because one varana cannot have any upadha. So, idutau upadheyasya iti samasena anya padarthaha kashtana samudaya eva bhavitum arhati natu ekaha varanaha. So, it is impossible to correlate them in samanadhikaranya. That is, idutubhadha cannot be visarjaniya. They cannot both refer to the same object. Because visarjaniya is a single letter and idudupadha should be compulsorily something which has more than one letter. Okay, so how do we do it? Idudupadhaha yaha samudayaha. Idutau upadhe yasya samudayasya. So, tadantasya visarjaniyasya. So, there is visarga at the end of a samudaya. And as the upadha of that samudaya, we have idut. Okay, so, such visarga is what we take. So, idudupadhasya visarjaniyasya. Idutau upadhe yasya samudayasya. Tasya avayavaha yaha visargaha. Tasya sattva-shatve ityartha kriyate atra vayyadhikaranyena anvayaha. Apratyayasya visarjaniyasya. Now, how do we relate apratyayasya and visarjaniyasya? Atra dvedha api sambhavati. Yatha supratyay, su ityasti tatra ukarasya itsamyayam lope kevalaha sakarahasti. Tasya rutve visarge kevalaha visargaha pratyayaha sambhavati. So, just the visarga itself is the pratyaya. There is nothing else on the pratyaya. Visarga itself is a pratyaya. Jasa dishu, in other cases like as, where you have jas, as ityasti varana dvayam, tatra sakarasya rutve visarge, visargaha sakshat pratyayaha na kevala pratyayasya avayavaha. So, we have both cases possible, where the visarga itself is a pratyaya, and one case where the visarga is a pratyaya avayava, not the entire pratyaya, but only a part of a pratyaya. So, atra katham, should we say, yatra visargaha sakshat pratyayaha tatra na bhavati, athava yatra visargaha pratyayavayavaha tatra bhavati, kaha arthaha. Tatra dikshita naam mate, samanadhikaranye na anvayaha. Kimartham, sambhavati samanadhikaranye vayyadhikaranyasya anyayatvat. Yatra samanadhikaranyam na sambhavati. Yatha idudupadhasya visarjaniyasya ityatra samanadhikaranena anvayaha asambhavaha. Tatra vayyadhikaranyam nyayam. Kintu yatra samanadhikaranyam sambhavati tatra vayyadhikaranyam anyayam. Ataha samanadhikaranyena iva anvayaha. Yatra sakshad visarga eva pratyaha tatra na bhavati. Apratyayasya visargasya sattva-shatve bhavataha. Ataha adnih karoti ityastite shattvam na bhavati. Tatra sakshad visarga eva pratyaha. Idanim aparaha prashnaha. Kevalaha visargaha pratyaha ityuktam. Vastutaha atra su ityeva kila pratyaha. Visargasya katham pratyayatvam. Iti chet. Sthanivadbhavena pratyayatvam iti vaktavyam. Sthanivad adeshaha. Sthani su iti pratyaha. Adaha tadadeshaha ru. Sopi pratyaha, sadadeshaha visargaha, sopi pratyaha. Sthanivadbhavena visargasya pratyatvam sadhaniyam. Kintu, sthanivadadeshonal vidhau iti saparasaptadhyayam asti. Karvasanayor visarjaniyaha iti visarga vidhayakam sutram. Rutva vidhayakam api. Both the sutras which give the rutva and visarga are both in the tripadi. Purvatra asiddham ityanena rutvam visargascha asiddham. The adesha itself is asiddha. Adeshasya asiddhatve katham sthanivad bhavaha iti prashna. Tada uchyate sthanivada adesho anal vidhau iti atidesham prati tripadisthasya visarga sutrasya va sasasharuhu iti rutva sutrasya va asiddhatvam nasti. Kimartham apratyasya iti jnapakadeva. Because he says apratyasya. Because everywhere, wherever you have visarga, the visarga cannot be a pratyaya. There is no case where directly visarga is a pratyaya. It is always sakara which is a pratyaya, which is converted to rutva and visarga. Okay. So, if you do not accept sthanivadbhava, there can be no case where visarga is a pratyaya. Sthanivadbhavam vina kutrapi visargasya pratyayatvam na sambhavati. Tathasati apratyasya iti vyartham. because we do not find any case where visarga is directly a pratyaya. So saying apratyayasya is vyartha. Vyartham sat jnapayati sthanivadadesho analvidhau iti sutram prati visargah siddhah. So because it becomes vyartha, it indicates that visarga is siddha for sthanivat sutra. Atayeva jnapakabalat sthanivat sutrena atideshah tripadyam api pravartate. So what is the conclusion derived? The atidesha by sthanivadadesho analvidhau can apply even in the tripadi. Kintu atah parasmin purva vidhau ityati deshastu tripadyam na pravartate. Visheshapeksham jnapakam. A jnapaka will always apply only to that particular case. So in this case it applies only to the sthanivad bhava where visarga has to be a pratyaya. Okay. So for that we can, I mean the jnapaka just indicates that the sthanivadadesho anal vidhau iti sutram tripadyam api pravartate. But the other sutra for sthanivad bhava, which is asah parasmin purva vidhau, tasya tu tripadyam pravrattihi nasti. Okay. So all this is derived from the jnapaka. Ataha purvatra siddhena sthanivata iti paribhasha asti. So that is a paribhasha which says na sthanivata iti yukte atah parasmin iti sthanivad bhavaha na bhavati iti yaptaha tattu etad jnapaka moolam. So that paribhasha has its roots in this jnapaka. It is not a separate vachaniki paribhasha. It is a jnapaka siddha paribhasha. So what is the conclusion? Idudupadhasya visarjaniyasya ityatra vayyadhikaranyena anvayaha. Apratyayasya visargasya ityatra samanadhikaranyena anvayaha. Ataha yatra sakshad visarga eva pratyayaha tatra satvashatve na bhavataha. Yatra visargaha pratyayavayavaha tatra bhavataha iti siddham. Tatha sati kutrati doshaha bhavati matuhu karyam ityasti. Matri shabdat ngas pratyah as tatra visargaha pratyah na kevalam pratyayavayavah tatha sati katham tatra shatva nivaranam. How do you prevent shatva iti prashne apratyasya iti nishedhasya apravrtehe shatva praptau. Since the nishedha apratyasya will not apply, we should have shatva. Into tatra ekam vartikam asti ekadesha shastra nimittakasya shatvam na. Okay. Yatra ekadesha shastra nimittakam ha visargaha. So from ekadesha you get some varna, for that you have the visarga. Yathatra rita ut ityanena ukaraha urandraparaha iti repaha. Josaha ekadeshaha. So that gives rise to the repha. Because of that repha you have the visarga. Yataha ekadesha shastra nimittakaha yaha visargaha tasya shatvam na bhavati. Katham nyayate kaskadigane bhratushputra shabdasya paathat. Kaskadigana. Kaskadishucha comes at the end of this whole prakarana. Okay. So it puts together words which would not have got sattva or shatva by other rules, but we need shatva. Okay, it's a collection of such words. He states all the rules for sattva and shatva. Keshuchit shabdeshu sattva shatve ishyete kintu na prapnutaha. You will not get them from the rules. So all such words are put in the kaskadigana. Tatra bhratushputraha iti shabdaha pathyate. Yadi idudupadhasya chapratyasya ityanenaiva siddhyati shatvam tarhi kaskadigane bhratushputra shabdaha na pathaniyaha. Tasya patha asti ityanenaiva jnayate ekadesha shastra nimittakasya shatvam na bhavati. Okay, clear? So that is what I think we did last class primarily. I mean, I might have left a few minor points, but these were the major ones. Any questions? Paul, nurse Thanivat, I didn't understand your question. Yes.
Okay. Yes. Well, I thought that you're saying that this Sthanivad Bhava in the Tripadi is coming, that paribhasha is coming from this Jnapaka, and but it says nastanivat. So I'm a little confused there.
See, purvatrasithe nastanivat need not be told. The paribhasha need not be told at all because the sthanivat bhava, it's always asiddha. Purvatra siddhe, the sutras which are the sthanivat bhava sutras are in the sapara saptadhyayi and everything, it will not operate in the tripadi, that is known. So why this paribhasha? The question. So this paribhasha raises because there are some cases in which sthanivat bhava can operate in the tripadi and there are some cases where it cannot operate. So this paribhasha basically states that the atah parasmin purva vidhau, the sthanivat bhava by atah parasmin purva vidhau will not operate in the tripadi. So how do you derive this, that it operates in some cases, does not operate? How do we know that it operates in some cases? Is through this nyapaka. Otherwise there need not be a paribhasha because sthanivat bhava is in the sapara saptadhyayi, it will not operate in the tripadi. So it is directly from purvatra siddham. So because the paribhasha is there, it's specifically, why do we require the paribhasha at all? Because there is a jnapaka for the operation of sthanivararesho anal vidhau in the tripadi, which is this, which we just discussed. So this, the whole jnapaka just distinguishes between the two kinds. Okay, one which operates and one which does not operate. So the paribhasha states that which does not operate. So it is derived from the jnapaka. It does not directly state what the jnapaka tells. It is derived from the jnapaka. It does not state that the sthanivadadesha anal vidhau operates in the tripadi. It states the reverse. Any other questions? Yes? So that was all.
Yes, if that were the case, would it not be easier and straightforward to say that Sthanivat Bhava is applicable only
Acha Parasmin
is not?
Yeah, see, the paribhasha, it is Dikshita's view of the paribhasha. So other people view the paribhasha in different way. So according to Dikshita, that's what it means. Okay. So there are different views to the paribhasha itself. This is Dikshita's view of the paribhasha. Just a moment. Agrimam Sutramasti, this Trishchaturiti Krutvorthe. Krutvorthe Vartamananam, Esham, Visargasya Shakarahasyat, Shakarahavasyat, Kupoho, it is Sutartha. Esham Nama, Dvihi, Dvis Trishchatur, Dvihi, Trihi, Chatuhu, it is Treshabdaha. So, Vedate Krutvorthe Santi, Esham, Visargasya, Shakaraha, Vikalpena Bhavati. Iti sutrarthaha. Krutvorthaha namakaha. Iti prashnaha. So, sankhyayaha kriyabhyavrittiganane krutvasuch. Krutvasuch iti kashchana pratyahasti. Sankhyayaha. Sankhyamasakebhyaha shabdebhyaha. Ayam pratyaha uchyate. Kriyabhyavrittiganane. Kriyayaha abhyavrittihi. Nama punah punah avrittihi. Tasya ganane. To indicate the number of times that a kriya is repeated. For example, panchakritvaha pathati. He reads 5 times. So, kriyayaha abhyavrittihi. It is indicating a repetition of kriya, of an action. Okay. So, for that, on a sankhyamachaka, you have the kritva such pratyaya. You hear kritvaha, saptakritvaha. Saptakritvaha whatever, bhunkte, whatever, whichever kriya you can add it to. Sankhyayah kriyabhyavritti ganane katva such, dvis vitri chaturbhyah such, tasminneva arthe kriyabhyavritti ganane, dvi tri chatur ityetebhyah such iti pratyayah vidhiyate. Ekasya sakritcha, ekashabdasya tu sakrit ityadeshah kriyate. So sakrit ityukte ekavaram. We are more familiar with, we use like ekavaram, dvivaram, etc. It is easy. Ekavar means once. Sakrit means once. Dvihi means twice. Trihi is thrice. Chatuhu is four times. Okay, you are repeating an action four times. So dvihi, trihi, chatuhu are from such. Okay, the such is only sakara is the pratyaya. So you have dvi, s, there is uttra visarga, it becomes dvihi. Similarly, trihi. So chatur, s, ityasti, ratsasya iti sakarasya lopaha, so rephasya visargaha, you have chatuhu. From pancha onwards, it is all kritva. Pancha kritvaha, sapta kritvaha, nava kritvaha, dasha kritvaha, etc. Okay. So, from pancha you have kritva such. Before that, eka has sakrit, dvi, tri, chatur has such. All these three together are called the kritvortha. Anena sutrena kim uchyate, yada kritvorthe ete shabdaha santi, dvi, tri, chatur, tesham visargasya shakaraha vikalpena bhavati. Dani, dvis, trish, chatuhu ityuchyate, dvihi, trihi, iti sarvada kritvorthaha eva. They are always kritvorthas. Why say kritvorthe again? Kimartham punaha kritvorthe iti vaktavyam. Kevalam dvitri chatur iti nochate kida. As you can see, here dvitri chatur bhyasuchi. It says dvitri chatur. They are the plain pratiparikas. But when you are saying dvistris chatur, the dvis and tris always indicate that there is the such pratyaya. So when the such pratyaya is there, it is always kritvortha. Sarvada kritvortha eva. Tatha sati kritvorthe iti kimartham vaktavyam iti prashnaha. Tatra kim uchyate chatur ityasti dvis tris ityatra samshayah nasti kintu chatur ityasti. Chatur ityatra tu kevalasya chatur shabdasya api chatur ityeva pratipadikam sujantasya api tathaiva. Even when you add such, chatur s, the sakara gets deleted by ratsasya, so you have chatur itself as the pratipadika. So in chatur, you cannot make out whether it is the, say, just the number or the kritvortha. Right? So chatur shabde na jnayate. Dvis tris ityatra kritvorthaha iti spashte api. Chatur ityatra na jnayate. Saha kevalaha chatur shabdaha va kritvorthaha va iti. Ataha spashtikaranartham kritvorthe iti uchyate. Tatra sujantasyaiva grahanam iti bodhayitum sutre kritvortha grahanam. That is what we say. That is what is usually the usual argument. Kinto iha dvitribhyam sujantabhyam sahasatyat. Because it is being told along with dvis and tris. Okay. You are mentioning dvis, which is a sujanta. We are mentioning tris, which is sujanta. When you mention chatur immediately after, by sahacharya, it is obvious that chatur is also sujanta. Okay. Chatur, sahacharya is one of the techniques for disambiguation. Sarvatra, it is not just here, everywhere we see, there are different ways in which the same word can mean different things. How do you know which word, which artha is meant? So there are different things. There is prasanga by the context. Say for example, they say, it's a famous thing in tarka, there is also a karika. I'm not getting the exact karika, which says the different things which help to understand the meaning. Say there is prasanga. If you are, say, sitting for food, and say saindhava manaya, saindhava shabdasya lavanam ityartha api asti. Saindhavam nama samudrad utpannam iti. Lavanam ityartha api asti, ashwaha ityartha api asti. So if you are sitting for food and you say saindhava manaya, tatra lavanam ityeva arthaha. Bahihi prasthitaha saindhava manaya iti vadati che, tatra ashwamanaya ityeva arthaha. Okay. So such, that is one case how you can determine the meaning of a word based on the context. the prasanga. So there is also sahacharya, using words which are used together. You can know, say you are talking about things in the kitchen. You are talking about tandula. You are giving a list of a tandula, guda, saindhava, etc. So because of the sahacharya, knowing the words which are together, okay, so you can know that the saindhava there which mean a lavana. If it is in a list of say gajaha, saindhavaha, etc., or gauhu, etc., if it is a list of animals of any list which makes sense for the horse to be there, it will mean a horse. So sahacharya is one of the cases where you determine the meaning. Swatra dris iti sujantaha uchyate, tris iti sujantaha uchyate, sahajariyate chaturityapi sujantayeva grahishyate. Iha dvitribhyam sujantabhyam sahajariyate chatushabdopi sujantayeva grahishyate. So by sahajariya we can decide that it is sujanta. We use sahajariya in many cases in vyakarana also. Okay. So for example, there is sutisi halyabhyo dirghat sutisya praktam halit. Okay. So there is sutisi etetesham lopaha etetet. So su is there only in the su aujas, so that is clear. Ti is found only in tiptas ji, that is also clear. Si etetra tu sandehaha. Sip tiptas ji, siptastha etetra, sip asti. Ting, it's a ting pratyayam. There is also sich, which is for lung. Chli lungi chleha sich. So that is also si. So which si should we take? Tatra tipa sahacharyate tingeva grihyate. Because it comes along with ti, we say that we take the si which is sip, which is associated with ti, rather than the one which is not associated. So we do use sahacharya nimayama many cases in vyakarana. Atah atrapi dvitribhyam sujantabhyam sahacharyate chatushabdopi sujantayeva grihishyate. So then why krutvorthe? Tarhi krutvorthe iti na vaktavyam. Krutvortha grahanam nyapakam sahacharyam na sarvatra vyavasthapakam. So the krutvortha grahana here, not required but still done, it indicates that sahacharya is not to be treated as final everywhere. Bahutra sahacharyat sahacharyat padartha grahanam bhavati. Kintu sarvatra tadeva bhavet. Sahacharita seva grahanam. Tatrapi paribhasha asti. Sahacharita asahacharita yoho. Sahacharita seva grahanam. Iti paribhasha asti. Okay, derived from this. Because of the sahacharya. But it is not sarvatrika. Sarvatra tad bhavedeva. Iti niyamahanasti. It is not an absolute rule that sahacharya is to be used everywhere. Tena dibhi vevitam. Atra tu prayojanam nasti. Atra tu sahacharyadapi sayevartha siddhyati. In this particular case, it does not make a difference. Okay. But in some other cases, like dibhi vevi itam, it is ki. Dibhi vevi itam. Gunavriddhi nabhavataha. So it is a gunavriddhi nishedha sutra. Vriddhirare jarengunaha iko gunavriddhi. Na dhatulopardha dhatuke niti cha dibhi vevi itam. So na gunavriddhi na bhavataha ityuchyate. Didhi vevi itam ityasti. Didhing iti dhatuhu. Veving ityapi dhatuhu. It iti kaha iti prashnaha. It iti dhatuhu va. It iti dhatuhu asti. Tathaiva agama asti. There is idagama which is commonly found. Right? So ubhayam asti tatra kasya grahanam. Iti prashnaha. So if you are going by sahacharya, you should take a dhatu itself. You cannot take an agama. Kintu tatra agamasya itaha grahanam. So to establish the rule that sahacharya is not to be applied everywhere indiscriminately. Tadartham atra krutvortha grahanam. Atra tu sahacharya api karyam siddhyati. But still he emphasizes using krutvorthe. Tena kim nyayate. Sarvatra sahacharyasya upayogaha na karaniya. So what is sahacharya? It is determining the meaning of a word depending on the things which are along with it. Sahacharita, that which comes along. As I said, there are a list of things. As I said, there is Sainhava. There is a list of things to be brought. Okay, which list say Tandulaha, Gudaha, Sainhavaha, Sharkara, whatever. Okay, you know the meanings of some. You don't know what is Sainhava. Okay. So how do you know? Looking at the things which come along with it. Or rather, you know that Sainhava means Ashwa and Lavana. But you don't know which is intended. So you look at the things which are along with it. And you decide based on the nature of that. So similar nature. Things of similar nature are listed together. That is the root of the paribhasha. If you have similar things, you would tend to list it together. Tena krutvartha grahanam nyapakam sahacharyam na sarvatra vyavasthapakam. Yeah, it is similar to context, but it is not exactly the context. Okay, the context is you are just bringing, so it can be both. There is a slight difference, that's all. It's similar, that is how we actually decide, but yeah. So, tena didhi vevita mityatra dhatu sahacharye api agamasya itah grahanam. Ubhayatra vibhasha cheyam. Dvistrish chaturiti kurutvorthe iti uchyate ubhayatra vibhasha. Vibhashas are of three kinds. Prapta vibhasha, aprapta vibhasha, ubhayatra vibhasha. Prapta vibhasha, purva sutrena karye prapte anena vikalpyate. Sa prapta vibhasha. Aprapta vibhasha, purva sutrena aprapte vikalpena vidhiyate. Sa aprapta vibhasha. Ubhaya vibhasha, keshanchana prapte anyesham aprapte anena vikalpyate. So this is a vikalpa sutra. Visargaha, visargasya vikalpena shattvam vidhiyate. So he says ubhayatra vibhasha. Katham ubhayatra vibhasha? Chatur ityatya idurupadasya cha apratyasya iti prapte. For chatur shabda, the visarga there, chatuhu, is not from apratyaya. Chatur su iti sthite sakarasya lope chatur iti pratipadike repaha tasya visargaha. So it is not from a pratyaya. Ataha idudupadasya cha apratyayasya ityanena shatvam praptnoti. Nityam shatvam praptnoti. In case of chatur, we would have compulsorily got shatva by idudupadasya cha apratyayasya. Itarayostu aprapte dvistris ityatrato pratyayasya visargaha. The pratyaya is such, which is kevala sakaraha. Tasya rutve visarge visargaha sakshat pratyaha. Ataha idudupadasya cha apratyayasya iti uktatvata tena shatvam na praptnoti. Chatur shabdasya nityam shatve prapte dvistris ityetayoho aprapte. So you have both prapta and aprapta vikalpa. So this is what we call ubhaya vibhasha. Dvihi triti ityatra pratyaha visargaha. Ataha idudupadasya iti shatvam na praptnoti. So this is a ubhaya vibhasha. Nacha tayorapi isuso samarthye ityanena siddhishankya. So the next sutra says is usohu samarthye. Yatra is us asti samarthyam cha asti tatra bhavati. We will see this sutra later. Is us ityasti kila is ityasti dvistris iti. So tena bhavati va iti prashnaha. Isaha pratyayasya arthavatascha tatra grahanat. So he says tatra kim svikriyate is ityeva pratyaha syat arthavan chasya. The whole is should be meaningful. Okay. Atra tu is ityasya pratyayatvam nasti kevalaha sakaraha eva pratyaha ikaraha pratipadikasya avayavaha. Is iti samudayasya arthaha nasti. The dvi, the pratipadika independently has is meaningful. The su is meaningful. But is, when you take a part of the pratiparika and join it to the pratyaya, it is not meaningful. Tatra isuso samarthe ityatra pratyayasya is should be the pratyaya and should be arthavat. Tadrashasya eva grahanam. Ataha isuso samarthe ityanena api na praptnoti. Shatrasya praptireva nasti. Dvistris ityatra. So agre tatra kaumudyam uchyate krutvorthe kim krutvorthe vidyamananam eva etsham इति उच्यते. किमर्थम् इति चेत् चतुष्कपालः इति प्रत्युदाहरणम्. चतुष्कपाल इति इरुदुपधस्य इति नित्यंशः अज्विसा केवलस्य चतुर्शब्दस्य इरुदुपधस्य च अप्रत्ययस्य इत्यनेन षत्वं भवति. चतुर्षु कपालेषु संस्कृतः पूर्वोडाशः चतुष्कपालः. तत्र केवलः चतुर्शब्दः न तु सुजन्तः. इट् इस् नाट् सुच्, इट् इस् केवल चतुर्शब्द. सो तत्र विकल्पः न भवति. इट् इस् नाट् विकल्प, इट् इस् कम्पल्सरी षत्व बै इदुपधस्य च अप्रत्ययस्य. अप्रत्ययस्य विसर्गः प्रत्ययः विसर्गः. अतः तेन सूत्रेण नित्यं षत्वं भवति. अग्रिमं सूत्रमस्ति इससो सामर्थ्ये. सो एक्चुअली दिस् सूत्र हेज़् नाट् बीन् कमेण्टेड् इन् द सिद्धान्तकौमुदी. हि डस् नाट् से एनिथिङ्ग् अबौट् इट्. हि कमेण्ट्स् ओन्ली आन् द नेक्स्ट् सूत्र. किन्तु अस्य सूत्रस्य ज्ञानं विना तस्य सूत्रस्य अवगमनं क्लेशाय. अतः कौमुद्यां किमुच्यते अस्य सूत्रस्य विषये इति किञ्चित् पश्यामः. जस्ट् रिकलेक्ट् वाट् कौमुदी टोल्ड् अबौट् दिस् सूत्र. इससोः विसर्गस्य शः स्यात् वा कुप्पोः, कुप्पोः परयोः विकल्पेन श्रोतुं भवति इस् उसोः सामर्थ्ये. किमुदाहरणं सर्पिः करोति, सर्पिः करोति. सर्पिः घृतम् इति दट् मीन्स् घी. अके सर्पिस् इति औणादिकः शब्दः. इट् इस् डिरैव्ड् फ्रम् एन् उणादि इस् प्रत्यय आन् सृप्. ओके सो it is is okay. is usoh dhanush karoti, dhanush karoti. dhanush ityatra api us ityasti tasya shatvam vikalpena bhavati. samarthyam ityasti. samarthyam namakim. samarthyam iha vyapeksha. samarthyam dvividham. there are actually two kinds of samarthyas. what we call the vyapeksha and the other is called ekarthi bhavah. विपेक्षा सामर्थ्यम्, एकार्थीभाव सामर्थ्यम्. वाट् इस् सामर्थ्य? सामर्थ्य इस् इण्टर् रिलेशन्. टु वर्ड्स् बीङ्ग् रिलेटेड् टु ईच् अदर् इस् सामर्थ्य. से वाक्ये परस्परान्वितयोः व्यपेक्षा. यु हाव् अ सेण्टेन्स् वेर् टु वर्ड्स् आर् रिलेटेड् टु ईच् अदर्, देन् वी काल् इट् एस् व्यपेक्षा. फार् एक्साम्पल् ही से सामर्थ्ये किं तिष्ठतु सर्पिः पिबत्वम् उदकम्. So, sarpihi tishthatu, let the ghee be there. Okay, so he is probably making ghee. Tishthatu sarpihi, piba tvam udakam piba, you drink water. Here, sarpihi and piba are not related to each other. If you directly say sarpish piba, drink ghee, so then they are related to each other. So then we say there is vyapeksha samarthya. Atratu सर्पिशब्दस्य तिष्ठतु इत्यनेन अन्वयः, पिब इत्यस्य उदकम् इत्यनेन अन्वयः. सो देर् इस् नो परस्परान्वय बिट्वीन् सर्पिः एण्ड् पिब. सो देर् इस् नो व्यपेक्षा. वाक्ये परस्परान्वितयोः व्यपेक्षा. दोस् वर्ड्स् विच् आर् रिलेटेड् टु ईच् अदर् इन् अ सेण्टेन्स् आर् काल्ड् आर् सेट् टु हाव् व्यपेक्षा सामर्थ्य. सामर्थ्य इस् बेसिकली कोरिलेशन्. सो इन् अ सेण्टेन्स् वि काल् इट् एस् व्यपेक्षा. समासे एकार्थी भावः. वेन् टु वर्ड्स् आर् इण्टर् रिलेटेड्, इफ् दे केन् कम्बैन् टु फार्म् अ समास, वि काल् सच् सामर्थ्य एस् एकार्थी भाव सामर्थ्य. दे आर् केपेबल् आफ् कम्बैनिङ्ग् टु गिव् अ सिङ्गल् डिस्टिङ्क्ट् मीनिङ्ग् थ्रू अ समास. सो दट् इस् वाट् वि काल् एकार्थी भाव. सामर्थ्य इस् बेसिकली to check if two words are related. So in a sentence, in between separate words of a sentence, it is vyapeksha. In a samasa, it is ekarthi bhava. Okay, udaharanartham sitayaha patihi ityasti vakyam, tatra vyapeksha. We call it as vyapeksha samarthya. If they have, since they also have the ekarthi bhava, we can do a samasa and we can say sita patihi. It is samasa bhavati. So samasa always happens only if there is ekarthi bhava samarthya. Okay, now here we cannot see a difference. So vipeksha samarthyam api asti, ekarthi bhava api asti. So samanam eva bhati. But if you have a sentence like janakyaha sitayaha patihi, okay, atrapi sitayaha patihi ityanayoho vakye vipeksha asti. They are still related to each other, right? Janakyah sitayah patihi, janaka sutayah ityartha. So the husband of Sita, who is the daughter of Janaka, अत्रापि सीतायाः पतिः इत्यनयोः व्यपेक्षा अस्ति किन्तु एकार्थी भावः नास्ति. सो यू केनाट् हाव् सो सीता शब्दस्य पतिशब्देन व्यपेक्षा सामर्थ्यमस्ति किन्तु एकार्थीभावसामर्थ्यं नास्ति. अतः जानक्या सीतापतिः इति समासः न भवति. इफ् यू लुक् एट् द समास इट्सेल्फ यू नो इट् इस् राङ्ग्. यू केनाट् से जानक्याः सीतापतिः. इट् डस् नाट् मेक् सेन्स्. जानक्याः सीतायाः पतिः इति अर्थवत् जानक्या सीतापतिः इस् नाट् अ वेलिड् समास बिकास् देर् इस् नो एकार्थी भाव. योगेश महोदय प्रश्नः अस्ति वा?
नमो नमः. हलो
वदतु, श्रूयते.
अत्र कर्मधारयं विधाय पुनः षष्ठीपुरुषं विधातुं शक्नुमो वा? जानकी चासौ सीता च इति विग्रहं नाम जानकी सीता
तादृशः न दृश्यते समासः. कर्तुं शक्यामि ततः कर्मधारयं कर्मधार यथा नीलम् उत्पलं कृत्वा नीलोत्पलं नीलोत्पलस्य रजः नीलोत्पलरजः कर्मधारयं कृत्वा षष्ठी तत्पुरुषः शक्यते किन्तु एतादृशेषु समासः न भवति. जानकी सीता इत्यत्र समासः न भवति.
नाम कदाचित् कृत्वापि तस्य अर्थसामञ्जस्यं न सङ्गच्छति इति
तादृशाः समासाः न प्रयुज्यन्ते.
नाम एतादृशं कुर्मश्चेदपि अर्थसामञ्जस्यं न स्यात् अथवा किञ्चित् यथा आकुरड् इति आङ्ग्लभाषायां
न युज्यन्ते प्रयोगाः. सत्यम्
एवम्.
अत्र सीतापति इत्यनयोः एकार्थीभावसामर्थ्यं नास्ति. सो ऐ होप् यू अण्डर्स्टुड् वाट् इस् व्यपेक्षा, वाट् इस् एकार्थीभाव. सो उभयमपि परस्परसम्बन्धः, परस्परान्वयः एव सामर्थ्यशब्देन उच्यते. तच्च सामर्थ्यं द्विविधं, वाक्ये व्यपेक्षा, समासे एकार्थीभावः. अत्र इससोत्सामर्थ्ये इत्युच्यते, तत्र सामर्थ्यशब्देन किं विवक्ष्यते चेत् सामर्थ्यमित व्यपेक्षा, व्यपेक्षासामर्थ्यमेव अत्र विवक्षितम्. अतः वाक्ये अपि भवति. सो इट् इस् नाट् जस्ट् इन् अ समास, इवन् इन् अ वाक्य यु हाव् दिस् आपरेटिङ्ग्. यथा सर्पिश् करोति इत्यत्र समासः न केवलं वाक्यमेव, तत्र सामर्थ्यमस्ति, परस्परान्वयः अस्ति, व्यपेक्षा अस्ति इत्यतः षत्वं विकल्पेन प्रवर्तते. यत्र व्यपेक्षा नास्ति, तिष्ठत सर्पिः पिबत्वं मोदकं, तत्र षत्वं न भवति इत्यर्थः. क्लियर्? As I said, there is no manorama for this sutra. Nityam samase anuttarapadasthasya iti agrimam sutram. So because of this we know that is vyapeksha. Because he says samase nityam. If it is samasa, it is compulsory. Which means the previous case did not apply to samasa. It applies to vyapeksha only. Okay. So isusohu visargasya anuttarapadasthasya samase nityam shahasyat. So samase isusohu nityam shahabhavati kupvoh parayohu anuttarapadasthasya. उदाहरणार्थं सर्पिश् कुण्डिका, सर्पिशः कुण्डिका, अ पाट् आफ् घी, सर्पिश् कुण्डिका. नित्यं समासे इत्यनेन नित्यमेव षत्वं भवति, न तु विकल्पेन. अनुत्तरपदस्थस्य इति किम्? वैसे अनुत्तरपदस्थस्य परमसर्पिः कुण्डिका. यु हाव् द फस्ट् वी हाव् द समास परमं सर्पिः, परमसर्पिः, परमसर्पिशः कुण्डिका. So, you have Paramasarpishaha Kundika. Idanim, the Sarpi is the Uttarapada. Right? Paramasarpihi iti samase Uttarapadam Sarpihi iti. Ataha tasya punaha samase krute tadrishasya is. Isaha visargasya shatvam na bhavati. So, you will not get it from either of the sutras. Anuttarapadasthasya iti uktatvat anena sutrena na bhavati. तत्र तु व्यपेक्षा सामर्थ्यम्, अतः समासे पूर्वसूत्रेणापि न भवति. सो इससोः समासे नित्यं षत्वं सर्पिष्कुण्डिका, व्यपेक्षायां वाक्ये तु विकल्पेन षत्वम् इति पर्यवस्यति. इदानीं सो दिस् इस् फैन् किन्तु कश्चन प्रश्नः अस्ति सर्पिष्कुण्डिका इत्येव किमर्थम् अत्र उदाहरणं दीयते. देर् आर् अदर् थिङ्ग्स् विच् केन् बि गिवन्. किमर्थं तदुदाहरणं यच्छन्ति दीक्षिताः इति चेत् सर्पिष्कुण्डिका इति शब्दः कस्कादिगणे पठ्यते. यथा मया उक्तं कस्कादिषु च इति सूत्रमस्ति. कस्कादिगणे तादृशाः शब्दाः पठ्यन्ते येषां सूत्रेण षत्वं न सिद्ध्यति. सूत्रेण षत्वं न भवति तथापि षत्वम् अपेक्षते. तेषां कस्कादिगणे पाठः क्रियते यथा भ्रातुष्पुत्रः इत्यादि. तत्र सर्पिष्कुण्डिका इत्यपि पठ्यते. किमर्थं? सूत्रेणैव सिद्ध्यति किल. When we already have shatva from this sutra, why is the word sarpishkundika included in the kaskadigana? Tatra kechana vadanti, kaskadigane pathat, uttarapadasthasyapi shatvam bhavati, paramasarpishkundika itteva. So some people say, because it has been included in the kaskadigana, uttarapadasthasyapi shatvam bhavati. Ataha paramasarpishkundika itteva rupam. सो अनुत्तरपदस्थस्य इत्यत्र अन्यत् किमपि उदाहरणं दातव्यम्. सो द कौण्टर् एक्साम्पल् फार् दिस् अनुत्तरपदस्थस्य इत्यत्र यत् प्रत्युदाहरणं दातव्यं तत्र परमसर्पिः कुण्डिका इति न दातव्यम्, अन्यत् किमपि. सो अदर् देन् सर्पिश् कुण्डिका से परमसर्पिश् पानम्. सो द ड्रिङ्किङ्ग् सर्पिशः पानं, परमसर्पिशः पानं, परमसर्पिः पानम् इति किमपि उदाहरणं दातव्यम् इति केचन वदन्ति. किन्तु भाष्ये परमसर्पिः कुण्डिका इत्येव प्रत्युदाहरणं दत्तमस्ति. द भाष्यकार गिव्स् परमसर्पिः कुण्डिका आस् द कौण्टर् एक्साम्पल् फार् अनुत्तरपदस्थस्य. अनुत्तरपदस्थस्य इति किमर्थं वक्तव्यं? परमसर्पिः कुण्डिका अतः उत्तरपदस्थस्य न भवति. तथा सति कस्कादिषु सर्पिष्कुण्डिका शब्दस्य पाठस्य किं प्रयोजनम्? वै वुड् वि रिक्वैर् सर्पिष्कुण्डिका देर्? केवलस्य सर्पिष्कुण्डिका शब्दस्य तु अनेन सूत्रेण सिद्ध्यति. यदि उत्तरपदे न अस्ति तर्हि षत्वं न इष्यते. तर्हि कस्कादिगणे सर्पिष्कुण्डिका शब्दस्य पाठस्य किं प्रयोजनम् इति प्रश्नः. कस्कादिषु सर्पिष्कुण्डिका शब्दः व्यपेक्षा विरहेऽपि षत्वार्थः, व्यपेक्षायां नित्यार्थश्च. सो हि गिव्स् टु प्रयोजनस् फार् दट्. किं? व्यपेक्षा विरहेऽपि षत्वार्थः, यथा व्यपेक्षा विरहेऽपि. सो अत्र मनोरमायाम् उच्यते तिष्ठतु सर्पिष्कुण्डिकाम् आनय. यथा पूर्वत्र उक्तं तिष्ठतु सर्पिः पिबत्वम् उदकम्, तत्र व्यपेक्षा नास्ति इत्यतः इसुसो सामर्थ्ये इत्यनेन शत्वं न भवति. एवमेव अत्र व्यपेक्षा विरहे तिष्ठतु सर्पिः कुण्डिकाम् आनय. सर्पिः कुण्डिका इत्यनयोः व्यपेक्षा सामर्थ्यं नास्ति. अयं समासोऽपि न. इट् इस् नाट् सर्पिषः कुण्डिका, समासः न. तिष्ठतु सर्पिः इति भिन्नं पदं, कुण्डिकामानय इति भिन्नं. तथा सति सूत्रद्वयेनापि षत्वं न प्राप्नोति. तथापि व्यपेक्षा विरहेऽपि षत्वार्थम्, अतः तिष्ठतु सर्पिष्कुण्डिकामानय इत्यत्र षत्वम् एकं प्रयोजनम्. सो बिकास् इट् इस् इन्क्लूडेड् इन् द कस्कादिगण, व्यपेक्षाभावेऽपि षत्वं भवति इति एकं प्रयोजनम्. व्यपेक्षायां नित्यार्थं, यत्र व्यपेक्षा अस्ति तत्र किं भवति? इसुसो सामर्थ्ये इत्यनेन विकल्पेन षत्वं भवति. किन्तु व्यपेक्षायां नित्यार्थं, व्यपेक्षायामपि नित्यं षत्वसाधनार्थम् इदं सर्पिष्कुण्डिकायाः. सो इदं वाक्यम्, इदं सर्पिः कुण्डिकायाः. सो इट् इस् नाट् सर्पिष्कुण्डिका, कुण्डिकायाः इदं सर्पिः. सो दिस् सर्पि वास् ब्राट् फ्रम् द पाट् इत्यर्थे व्यपेक्षा अस्ति. व्यपेक्षायां सत्यां विकल्पेन इसुसो सामर्थ्ये इति षत्वं प्राप्नोति. तत्र नित्यं षत्वार्थं कस्कादिगणे पाठः, अतः इदं सर्पिष्कुण्डिकायाः. समासे तु नित्यं समासे अनुत्तरपदस्थस्य इत्यनेनैव नित्यं षत्वं सिद्ध्यति. तत्रापि यदि उत्तरपदे अस्ति तर्हि षत्वं न भवति. यत्र व्यपेक्षा, वाक्ये नित्यमेव षत्वं, व्यपेक्षायां नित्यार्थं, वाक्ये व्यपेक्षा विरहेऽपि षत्वं भवति, तिष्ठतु सर्पिष्कुण्डिकाम् आनय इति प्रयोजनद्वयं कस्कादिगणे सर्पिष्कुण्डिका शब्दस्य पाठस्य. सो द पर्पस् आफ् सर्पिष्कुण्डिका इन् कस्कादिगण इस् दिस् इन् अ सेण्टेन्स्. Even if it is vyapeksha, there is compulsory shatva. Even if there is no vyapeksha, there is compulsory shatva. So that is the purpose for which Sutrakara has included Sarpishkundika in Kaskadishucha. Not to indicate Uttarapadasthasya api shatvam bhavati. Not to indicate that even if it is Uttarapada, there is shatva. Yadi Uttarapadasthaha samase, yadi Uttarapadasthaha Sarpishabdaha, tatha Sarpishkundika ityatra shatvam na bhavati. Paramasarpishkundika iti bhashyodaharanam sadhu. Yattu parayanika ahuhu. Kaskadishu sarpishkundikadinam pathaha uttarapadasthatvepi shatvarthaha. So ayam pathaha uttarapadasthatvepi shatvarthaha iti kesana vadanti tat bhashya virodha dupekshyam. That is against the bhashya because the bhashyakara himself expressly gives paramasarpishkundika as the pratyudaharana. Ataha bhashya virodha dupekshyam. So parayanikaha ityasti. Parayane divyadiri parayanikaha iti diyate. So it is apparently a school of grammarians. I mean, I could not find out what exactly or who those grammarians were. It refers to a particular school of grammarians. So, and I don't know more about who exactly they were or what were the texts. Okay. So even the Kashika says as parayanikaha. So even in the Kashika you find the same word used. So satyartha kaha iti naspashtam. Okay. So agrimam sutram asti ataha kr kami kamsa kumbha patra kusha karanishu anavyayasya. So akarad uttarapadasya. So anavyayasya visargasya. So where there is anavyaya visarga samase nityam sakaradeshah syat karotyadishu pareshu. Okay. Atah parasya visargasya etesha shabdeshu pareshu nityam sakaradeshah bhavati. Natu uttarapadasthasya, not anuttarapadasthasya it tinuvartate. Okay. So he says one who goes through or studies, now it is not just a parayanika, I mean there is a meaning of the word, but it does not refer to as in he who does studies. Because I mean it refers to a particular set of grammarians who maintain the view that of that uttarapadasthasya apishatvam bhavati. Yeah, so sorry. Natu uttarapadasthasya iti kaumudi. Udaharanani diyante. Kr ayaskaraha, kami ayaskamaha, ayaskamsaha, ayaspatram. So these are the examples for this. So there is kusha, ayaskusha, ayaskusha. Kaha arthaha? He gives ayasahita kusha, ayaskusha. Kusha is grass. Grass along with ayas. Ayas is iron. Okay. So grass along with iron. A twig of grass which is along with iron is called ayas kusha. There's a question, ayas kusha. You would rather interpret it as ayas kusha. An iron stick would be called ayas kusha. So he says no. Ayas sahiteti. Natu ayasaha vikaraha. Ayasaha vikaraha ayas kusha. So form of ayas. So iron being molded into the form of a twig. Okay. So tasmin arthe ayas kusha iti rupam na bhavati. Kimattam nato ayaso vikaraha janapada iti nish prasangat. So there is a long sutra in the three pratyayas. Janapada kunda gona sthala. Sthala bhaja naga kala nila kusha. Atyasi kamuka kavarat. For these words, yeshu artheshu. Vrityamatra, Vapanakritrima, Shrana, Sthaulya, Varna, Anachadana, Ayovikara. So, Kusha Sabdasya, Ayovikara Arthe, Nish Vidhiyate. Taha Kusha, ityukte, grass. It is a twig of grass. Kushi, so if you use Nish, it means an iron twig. Okay, twig made of iron. Ayovikara. So, then it should have been Ayaskushi, not Ayaskusha. Ataha ayaskusha ityatra, ayasaha vikaraha ityatha kartum na shakyate. You cannot interpret it as a twig made of iron. Ayas sahita kusha, a kusha which has iron. Tasmin artheva vigraha vaktavyaha. The final meaning might be the same. Kintu vigraha ayas sahita kusha, a kusha which includes iron iti vaktavyam ayaskusha. Ayaskushi iti tu twig made of iron. Ayasaha vikaraha iti vaktum shakyate. So that's the minor thing about the Vigraha. The next example there is Ayaskarni. Ayaskarni. Ayaha iva karanav yasyaha. It says whose ears are like iron. Okay. So Nasikodara Ushta ityadina Nish. So Atrapi Nasikodara Ushta Janga Danta Karana Shabdahasti. Ataha Ayaskarna iti na bhavati. Ayaskarni iti bhavati. Ayaha iva karanav yasyaha. I'm not sure what is the meaning. I mean, when you say ears are like iron, I mean, are they hard? Is it hardness intended? Or what is the exact meaning conveyed by Ayaskarni? I don't know. I mean, it could be like, say, a pratima, a murti which has, say, the ears which are made of iron. So, that is one possibility. So, it will depend on the context. What exactly is the context in which we use the word? So the last sutra, which is commented in the prakarana, is adhashirasi pade. Etayoho visargasya adhashiras etayoho visargasya sadeshahasya padashabde pare. So when followed by padashabda, adhashiras ityetayoho sakaradeshah bhavati. Atra adhashirasi iti prathama vibhaktau dvivachanam shiraha shirasi shiramsi. So etayoho iti shashtyam sutra artha likhyate. So etayoho iti sutre tu shashtyaha sthane prathama bodhya. Prathama asti kintu vastataha tatra shashtyarthaha eva. Adhashirasoho pade padashabde pare shattvam ityeva arthaha. Shashtyarthe prathama sutre uchyate. Sometimes you see this vajana vyateya and vibhakti vyateya in the sutras. Sutratva deva sadhutvam vaktavyam tesham. So adhaspadam iti udaharadam. Adhaspadam iti mayuravyamsakaditva samasaha. Kahartaha padasya adhaha below the feet. Padasya adhaha ityatra shashti tatpurushe padadhaha iti bhavet. Kintu adhaspadam iti katham mayuravyamsakadi. So mayuravyamsakadi is another such gana. Like kaskadishucha gives you all words which require sattva shattva, but you cannot get it from the sutra. The Mayura Vyamsakadi Gana in the Samasa gives you all words which are required to be as Samasa, but where you cannot have a Samasa through the normal rules. Okay. So, Parasya Adhaha Ityatrapi Shashti Tat Purushena Idam Rupam Na Siddhyati Ataha Mayura Vyamsakadi Tvat Samasaha. So, in Mayura Vyamsakadi, you take words as they are found to be used. Ataha Adhaspadam Padasya Adhaha Ityatraha Shiraspadam. Atratu Shashti Samasaha Shirasaha Padam. So Shirasaha Sthanam Ityarthe Shiraspadam. So Mayuravyamsakada Yashcha is 2172 Ritiya Adhyayasya Prathama Pade Antimam Sutram. Not 2-2, the last sutra of 2-1 is Mayuravyamsakada Yashcha. So that is the end of Visarga Santhi Prakaranam in the Manorama. Okay. It is quite a small prakarana in both Kaumudi and this. So the last prakarana is the Swadhi Sandhi prakarana. Sasajusho ruhu ityarabhyate padantasya sasya sajushabdasya ruhu syat. Padasya iti anuvrattam adhikara hastyatra padasya iti sasajurbhyam visheshyate. So padasya iti visheshanam sasajush iti visheshyam Visheshanena tadanta vidhihi. So there is tadanta vidhi. Ena vidhis tadantasya. Visheshanam tadantasya samnyasya. So what do you have? You have padasya and you have sasajushaha. Sasajushaha is a visheshana to padasya. Kim bhavati? Sakarantam. Sajushabdantam cha yat padam. Tasya ruhusyat. So sakarantam padam. Sakarantasya padasya rutum. Sajushabdantasya padasya rutum. Ityartha. Sutra kimasti, sutrarthe, padantasya sasya ityarthi. It appears as if it is a reverse, as if padasya is a visheshana. So that is why he clarifies, the padasya is the visheshya, sasajush is the visheshana. Tarhi padantasya sasya ityartha katham siddhyati, alontyasya. So sakarantam sajushabdantam cha yat padam, padasya iva ruttvam vidhiyate. Kasya bhavati alontyasya ityanena padasya ante yaha asti. Sakarahava sajushabdasya yaha antyaha antimaha varnaha shakaraha tasya rutvam bhavati. So the sutra artha is padantasya sasya sajushabdasya charuhu. But actually, Tadantavidhi is with Sasajush for Pada. And then again we apply Alonsyasya. Okay, so we will see those next. I just wanted to start the next Prakarana and stop. So, Visarga Sandhi Prakaranam. Atra Samaptam. Any questions? So, Parayanikaha is mentioned by Kashika in the next sutra. Probably in the Sarpishkundika. Yeah. I mean, the Kaskadishucha. So, he probably mentions us in Kaskadishucha. Because that is where you have Sarpishkundika and that is where you debate whether it is Parama Sarpishkundika or what. Yeah, Paramasarpish Phalam. So it should be some other word. So they say that Paramasarpish Kundika Ityatra Api Shatvam Bhavati. Uttarapadasthasya Api Shatvam Bhavati. Paramasarpish Phalam Ityadikam Pratyadaharanam Datavyam Iti Keshana Vadanti Tatna Iti Kashikayam Api Bhashya Virodhad Upeksham Ityeva Asti Dikshitaha Api Bhashya Virodhad Nasadhu Ityeva Vadati Tanmatam. Any other questions? Okay, we'll stop here. Inaksharas maamnayam adhigamya maheshwaraar satsamyakaranam proktam tasmai paninaye namaha dhyayan dhyayam param brahma smaram smaram gurur giraha siddhanta kaumudi vyakhyam kurma prodhamanoramam.